गृहपाठत्वेन किमपि न दत्तमासीत्, परन्तु मया उक्तं किमपि करोतु इति, भवान् सर्वे कृतवन्तः किमपि इति मन्ये पुनस्मरणं, किञ्चित् पुरस्मरणम् अपि कुर्मः इदानीं। हिमाङ्गी भगिनी प्रेषितवती एतत् सर्वं,
चतुर्थ अभ्यासं कुर्मः इदानीं।
किञ्चित् कुर्मः पुनस्मरणमेव न एव किमपि। हेमागी भगिनी पठतु, भवती प्रेषितवती।
आं भगिनि, नमस्ते। चतुर्थप्रश्नः वा?
न दृश्यते वा भगिनि?
न दृश्यते। उदाहरणं, नमनं करोषि नमसि, दहनं करोति सः दहति, संग्रहणं कुर्मः संगृह्णीमः, अधिगमनं करोति एषः अधिगमनोति, जीवनं कुरुथ जीवथ
जीवथ,
चिन्तनं कुरुतः चिन्ततः अपि च चिन्तयतः, अहं न जानामि, चिन्ततः
चिन्तयतः
चिन्तयतः, अस्तु।
पुनः वदतु।
तृतीयम्, अधिगमनं करोति एषः अधिगमनोति,
प्राय अधिगमति,
गच्छति, अधिगच्छति,
गमनं खलु, तत्र गम् धातु, अधिगच्छति
भवति। अस्तु, अहं लिखितवती अधिगमनं करोति,
स्पष्टं न आसीत् भवत् किं लिखितम् इति।
अधिगच्छति,
अधिगच्छति प्राय सम्यक्, अधिगच्छति,
अस्तु,
गमनं करोति इत्युक्ते गच्छति, अधिगच्छति,
अस्तु, ओके। अन्वेषणं कुर्वः अन्वेषावः, अन्वेषावः
अन्वेषावः,
परिहरणं कुर्वन्ति परिहरन्ति, छेदनं करोति छिन्नति,
छिन्नति,
भ्रमणं करोति भ्रमणं करोमि भ्रमामि, अर्जनं करोति भवान् अर्जति वा अर्जयति, अहं न जानामि, अर्जति वा अर्जयति,
अर्जयति भगिनि।
सो अर्जति अर्थं किम् अस्ति?
अर्जनम् इत्युक्ते यु अटेन् गेट् अर्न् अर्न् मे बि द अर्जनम् अर्न्
एण्ड् देन् अर्जयति,
अर्जयति, अर्जनं करोति अर्जयति क्रियापदत्वेन, वेन् इट्स् अ क्रियापद अर्जयति, अर्जनं करोति।
Both have similar meaning, arjati and arjayati, or different meaning they have?
Arjati, aham अर्जयति एव भवति भगिनि एतत् अर्जति इति अर्जति अहं न जानामि न दृष्टम्
अस्तु भगिनि षष्ठं वाक्यं कृपया वदतु अन्वेषणं कुर्वः दातुं अन्वेषावः 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 धन्यवादः
अर्जति इस् आल्सो शोयिङ्ग् एस् प्रोक्यूर् अक्वायर्
अर्जति
इट्स् द सेम् मीनिङ्ग् बट् यूजुवलि ऐ हव् सीन् अर्जयति एनेवर् सो अर्जति अपि अस्ति प्राय परन्तु अर्जयति
Yeah, I also have one more question. When there is a upasarga like adhi or pari and all, so that time how to find the moola dhatu of that kriya padani, like here adhi gachati. So gachati I know, but if it is something different like pariharanam or anything
haranam else, pari you have to remove, but agre gacham full chapter is there for upasarga.
Okay.
For now, pari adi you have to remove, and the next one you have to look at that one. But we'll get to that.
Okay. Dhanyavada.
We have the full chapter on upasarga.
Okay. Dhanyavada.
We will know all those 21 upasargas. Then you have to remove the front whatever, and then you have to take that and look for the dhatu.
Okay.
Okay, we'll get to that. Astu. Dhanyavada bhagini. Uttamakari. I think etat paryaptam iti manne. Agre sarama. Saptami krutam. एतदपि पुनःस्मरणमेव परन्तु किञ्चित् पश्यामः पुनःस्मरणम् अपि कुर्मः श्वः कस्य जयः महाभारते एतत् प्रसङ्गम् आगच्छति परन्तु किञ्चित् पश्यामः अपि सरस्वती भगिनी किञ्चित् एतत् पाठं पठतु
महोदय श्वः कस्य जयः अद्य श्वः परश्वः परश्वः ह्यः परह्यः परह्यः अद्य सोमवासरः यः रविवासरः श्वः मङ्गलवासरः परह्यः शनिवासरः
धन्यवादः भगिनि अपर्णा भगिनि अग्रिमे पठतु
परश्वः बुधवासरः प्रपरह्यः शुक्रवासरः प्रपरश्वः गुरुवासरः
एतत् सर्वम् अद्य अद्य किम् अस्ति? अद्य अद्य
अद्य सोमवार
अद्य यः यः
यः इज यस्टरडे रविवासरः श्वः इज टुमारो मंगलवासरः परश्वः इज द डे आफ्टर टुमारो बुधवासरः
परश्वः
डे आफ्टर टुमारो गुरुवासरः
अभ्यासपुस्तके पठितं वयं पठितवन्तः खलु किञ्चित् धन्यवादः भगिनि
धन्यवादः भगिनि
सुबोध् महोदय प्रथमपरिच्छेदं पठतु एतम् आरभ्य
एतं प्रसङ्गम् उच्चैः पठत कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति कौरवाणां पाण्डवानां च पक्षे महारथाः रथिकाः योधाः अनेके मृताः सहस्रशः सैनिकाः भग्नावयावाः जाताः कर्णः अपि हतः युद्धस्य षोडशः दिवसः चिन्ताकुलः युधिष्ठिरः एवं विषीदति
एतत् प्रसङ्गः अस्ति कुरुक्षेत्रे कुरुक्षेत्रे किं किम् अभवत् इति प्रसङ्गं विवृणोति अत्र धन्यवादः महोदय अवगतं खलु
अवगतम्
कुरुक्षेत्रे युद्धं प्रवर्तमानमेव अस्ति कौरवाणां पाण्डवानां न पक्षे महारथाः रथिकाः योधाः अनेके मृताः सहस्रशः सैनिकाः भग्नवयवाः जातः कर्णः अपि भतः युद्धस्य षोडशः दिवसः अस्ति तत्र युधिष्ठिरः वदति किं वदति इति पश्यामः वैभवी भगिनी अग्रिम वाक्यत्वं पठतु राजश्री भगिनी
आं भगिनी
ओ ओके अहो आरभ्य पठतु भगिनी
अहो मम दुर्भाग्यम् अद्य युद्धस्य षोडशं दिनं ह्य आचार्यद्रोणस्य दिवङ्गतिः परह्यः जयद्रथस्य प्राणहानिः प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनं तत्पूर्वं भीष्मादीनां पतनं श्वः कस्य जयः कस्य पराजयः न जानामि परश्वः कस्य
तत्र पश्यतु किम् अभवत् अहो मम दुर्भाग्यम् अहो मम दौर्भाग्यं किं कः वदति एतत् सर्वं
He says that it's my durbhagyam. It is the 16th day since the Yuddha has started. Acharya Drona is also, he has died. That was yesterday he died. Day before yesterday, Jayadradasya, he also died. And... 2 days before his son Abhimanyu Priyaputrasya he also went to heaven
kaha vadati etat sarvam yudhishthira right yudhishthira vadati
ha yudhishthira vadati yeah
etat dhanyavad bhagini so avagatam kalu sarvam adya paraya yaha etat sarvam datam asti
आं भगिनि
धन्यवादः अनिता भगिनी अग्रिमं पठतु
क्षम्यतां भगिनी केन् यू प्लीज़् एक्स्प्लेन् दिस् वन् लैन् प्रपरयः प्रियपुत्रस्य अभिमन्योः स्वर्ग गमनं सो हियर् अभिमन्योः इस् इट् षष्ठी
या
सो प्रियपुत्रस्य अभिमन्यु
he is the son, right? He is a Priya Putrasya Abhimanyu. He is also dead, right? So
okay. Dhanyavada.
Namaste, Bhagini. Parashvaha, kasya jeevanam, kasya maranam, na janimaha. Praparashvaha, तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति सर्वस्य अस्य कारणं मम राज्याभिलाषः अहम् एव सर्वविधस्य क्लेशस्य हेतुः अहं कथं जीवामि हा 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 इति रोदिति
किं भवति श्वः कस्य जयः कस्य पराजयः खलु श्वः
टुमारो या
कस्य जयः कस्य पराजयः न जानामि ओके कः वदति युधिष्ठिर एव एतत् सर्वं वदति
चिन्तयति परश्वः कस्य जीवनं कस्य मरणं न जानीमः डे आफ्टर् टुमारो ऐ डोण्ट् नो हू विल् बि अलैव् Who will be dead? Praparashvaha, tadanantaram kasya kasya, after the day after tomorrow, I don't know, kasya kasya kim kim iti na natam bhavati. I don't know what will happen to who all types. Kasya kasya kim kim bhavati. Sarvasya asya karanam mama rajyabhilasham. For all these things, I think my ichha or like my whatever intent of like Rajya Abhilasha, Rajyasya Abhilasha, that is what is the main like reason. Aham eva sarva vidasya kleshasya hetu. Klesha is something like guilty or something here?
Problem.
Problem, yeah. Kleshaha hetu.
कारणं हेतु इत्युक्ते कारणं आल् कैण्ड्स् आफ् प्राब्लम्स् आर् बिकास् आफ्
मी अहं कथं जीवामि हौ डु ऐ लिव् वित् दिस्
इति रोदिति सो इस् रैट् सो मेन् थिङ्ग् इस् दे आर् जस्ट् ट्रैङ्ग् टु शो यु आल् द हौ दे हव् यूस्ड् आल् द अद्य या परय एतत् सर्वं धन्यवादः भगिनि एतत् शब्दं चित्वा स्थलानि पूरयत् अत्र एतत् सर्वं परिशीलयामः गृहे अपि पश्यन्तु एतत् सर्वं पूरयत् कैण्ड् आफ् एक्सैज् अगेन् टु ऐ थिङ्क् एव्रिबडि इस् क्लियर् अबौट् अध्याय परव्य सो ऐ थिङ्क् अग्रेसराम एतत् सर्वं करोतु या इदानीं कुर्मः इदानीम् इत्युक्ते रैट् नौ इदानीम् एतत् कुर्मः उषा भगिनी एतत् पठतु
नमस्कारः उच्चै पठत पूर्वम् अहं बालः आसम् इदानीं युवकः अस्मि इदानीं कः समयः इदानीम् एकवादनम् अस्ति सैनिकाः प्रभाते शिबिरे आसन् इदानीं युद्धक्षेत्रे सन्ति
धन्यवादः भगिनि इदानीं कथम् उपयोगं कुर्मः इति पश्यामः अत्र. बालकृष्णमहोदय अग्रिमत्रयं पठतु.
आं भगिनि, नमस्ते.
नमस्ते.
सुरेशः पूर्वं केरले आसीत्, इदानीं काश्मीरे अस्ति. सरला प्रातः कार्यालयं गतवती, इदानीं नाट्यगृहं गच्छति. पूर्वं हास्तिनपुरं धृतराष्ट्रः पालितवान्, इदानीं युधिष्ठिरः पालयति. पश्चात् परीक्षित् पालयिष्यति.
पालयिष्यति, भविष्यत् काले परीक्षित पालयिष्यति इति तत् अवगतं खलु?
अवगतं.
धन्यवादः महोदय. राजश्री भगिनी अग्रिमं करोतु.
नमस्ते.
नमस्ते.
कोष्टकस्य फ्रम् देर् रैट्?
कोष्टकस्य
अष्टवाक्यानि रचयत. कृष्णः कुन्ती इदानीं निद्रामग्नः नास्मि. सेना
इदानीमपि उपयोगं करणीयम् एवं. कृष्णः इदानीं निद्रामग्नः नास्ति. एक अस्ति, तं स्मरसि, सेना किमस्ति, एतत् सर्वं उपयोगं कृत्वा वाक्यं करणीयं. लैक् जायिन् वेर् इट् इस् द रैट् क्रियापदं योजनं करोतु. कृष्णः किम् इदानीं किम् अस्ति? सज्जा अस्ति. कुन्ती इदानीं सज्जा अस्ति, परन्तु स्त्रीलिङ्गे अस्ति खलु सज्जा. तत् तथाविधं भगिनि.
कुन्ती इदानीं सज्जा अस्ति. योद्धारः उदारः इदानीं जयं वदत. अहम् इदानीं निद्रामग्नः नास्मि. वयम् इदानीं भवतः सहायकाः स्मः. त्वम् इदानीं तं स्मरसि.
उत्तमं भगिनि, धन्यवादः. धन्यवादः. एतावेदं परिशीलयतु गृहे अपि. किमपि नास्ति अत्र. क्रियापदं चित्वा योजनं करोतु, अत्र वाक्यं रचयतु. सर्वम् अत्र लिखतु. अत्र दत्तम् हस्तिनापुरम्. अत्र उदाहरणमपि दत्तमस्ति. पूर्वं दुर्योधनस्य अत्र सप्तमी विभक्ति अस्ति, त्यजामः अत्र. किमस्ति कुरुक्षेत्रे, एतत् पठामः. सर्वं किञ्चित् पुनस्मरणम् अपि अस्ति अत्र. झटिति गच्छामः. प्रश्नाः सन्ति चेत् पृच्छतु. साहित्या भगिनी एतत् आरभ्य किम् अकुर्वत् आरभ्य पठतु भगिनि.
किमकुर्वत संजय.
उच्चैः पठत जानीत च एषः अर्जुनः अस्ति भूतकालः अज्ञातवासे एषः बृहन्नला आसीत्
किम् अत्र किम् एषः अर्जुनः अस्ति खलु इदानीम् एषः अर्जुनः अस्ति अज्ञातवासे एषः बृहन्नला आसीत् भूतकाले अस्ति आसीत् तदेव भूतकालं दर्शयति अस्दात् लङ्लकारे धन्यवादः भगिनि
धन्यवादः
एतत् अपि पठतु एषा
द्रौपदी अस्ति अज्ञातवासे एषा सैरन्ध्री आसीत्
सैरन्ध्री आसीत् खलु अज्ञातवासे एषा सैरन्ध्री आसीत् द्रौपदी सैरन्ध्री आसीत् धन्यवादः भगिनि
धन्यवादः
भगिनी अत्र तन्तिपालः इत्युक्ते किं तन्तिपालतः सोरि तन्तिपालः
नाम तस्य नाम सर्वे अज्ञातवासे कः वेषपरिवर्तनं कृत्वा आसन् खलु तदेव नाम
अस्तु
अस्तु पठतु अत्र युधिष्ठिरः आरभ्य पठतु
युधिष्ठिरः अज्ञातवासे कङ्कः आसीत् भीमः अज्ञातवासे वल्लवः आसीत् नकुलः अज्ञातवासे ग्रन्थिकः आसीत् सहदेवः अज्ञातवासे तन्तिपालः आसीत्
धन्यवादः भगिनि अस्ति आसीत् कः भेदः इति दत्तमस्ति
अस्तु धन्यवादः
अवगतम् इदानीम्
आम् अवगतम्
अस् धातोः रूपाणि एतत् सर्वाणि रामेश्वरी भगिनी अस् धातोः रूपाणि पततु
अस् धातोः रूपाणि वर्तमानकाले प्रथमपुरुषः एकवचनम् अस्ति द्विवचनं स्तः बहुवचनं सन्ति मध्यमपुरुषः एकवचनम् असि द्विवचनं स्तः बहुवचनं स्थ उत्तमपुरुषः एकवचनम् अस्मि द्विवचनं स्वः बहुवचनं स्मः अस् धातोः रूपाणि भूतकाले प्रथमपुरुषः आसीत् आस्ताम् आसन् मध्यमपुरुषः आसीः आस्तम् आस्त उत्तमपुरुषः आसम् आस्व आस्म
धन्यवादः भगिनि अवगतं खलु वर्तमानकाले भूतकाले लङ्लकारः अत्र भेदः कः इति परिशीलनं कुर्मः अत्र एतत् सर्वे मनसि स्थापयतु किञ्चित् कण्ठपाठम् अपि करणीयम् अत्र प्रथम इदानीम् सुबोध् महोदय एकवारं पठतु एतत् सर्वं पुनः अस्तिस्तः सन्ति पठतु
अस्तु अस् धातोः रूपाणि वर्तमानकाले प्रथमपुरुषः अस्ति स्तः सन्ति मध्यमपुरुषः असि स्थः स्था उत्तमपुरुषः अस्मि स्वः स्मः अस् धातोः रूपाणि भूतकाले प्रथमपुरुषः आसीत् आस्ताम् आसन् मध्यमपुरुषः आसीः आस्तम् आस्त उत्तमपुरुषः आसम् आस्व आस्म
धन्यवादः महोदय
धन्यवादः
अत्र किं किञ्चित् कुर्मः अनिता भगिनी एतत् पठतु अत्र अभ्यासं पठतु
यथोदाहरण रिक्तस्थानानि पूरयत सः वाक्पटुः आसीत् तौ वाक्पटुः आस्ताम् ते वाक्पटवः आसन् त्वं वाक्पटुः आसीः युवां वाक्पटुः आस्ताम् यूयं वाक्पटवः आस्तः आस्त अहं वाक्पटुः आसन् आवां वाक्पटुः आस्व वयं वाक्पटवः आस्म
धन्यवादः भगिनि उत्तमकार्यं सो एतत् सर्वं पूरयतु अभ्यासमपि भविष्यति पूरयति चेत् धन्यवादः भगिनि अपर्णा भगिनि अत्र किञ्चित् पठतु
आं भगिनि शुड् ऐ रीड् फ्रोम् द पठतु पठत अवगच्छत च वर्तमानकाले युधिष्ठिरः नगरं गच्छति भूतकाले युधिष्ठिरः नगरं गतवान् दुर्योधनः अपि नगरं गच्छति भूतकाले दुर्योधनः अपि नगरं गतवान् तौ सर्वान् नगरजनान् पश्यतः भूतकाले तौ सर्वान् नगरजनान् दृष्टवन्तौ तौ सर्वैः मिलतः भूतकाले तौ सर्वैः मिलितवन्तौ
धन्यवादः भगिनि धन्यवादः एतत् धन्यवाद अत्र गच्छति गतवान् एतत् सर्वं प्रथमस्तरे दृष्टवन्तः खलु वयं गतवान् दृष्टवन्तौ गतवती एतदेव भूतकालं दर्शयति एतत् सर्वं पुनस्मरणमेव परन्तु परिशीलयामः धन्यवादः भगिनि बालकृष्ण महोदय युधिष्ठिर आरभ्य पठतु
युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति भूतकाले युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान् दुर्योधनः एकमपि सज्जनं न प्राप्नोति दुर्योधनः एकमपि सज्जनं न प्राप्तवान् यथा दृष्टिः अस्ति तथा दर्शनं यथा दृष्टिः आसीत् तथा दर्शनम्
धन्यवादः महोदय हेमाङ्गी भगिनी अग्रिमं सैरन्ध्री आरभ्य पठतु
आं भगिनि सैरन्ध्री सेविका अस्ति सैरन्ध्री सेविका आसीत् सा राज्ञीं सेवते सा राज्ञीं सेवितवती सा केशप्रसादनं करोति सा केशप्रसादनं कृतवती सा प्रतिफलं न इच्छति सा प्रतिफलं न इष्टवती सा नम्रतया तिष्ठति सा नम्रतया स्थितवती
धन्यवादः भगिनि सो परिशीलयतु एतत् तवतु प्रत्यय खलु एतत् सर्वं तवतु प्रत्यय धन्यवादः भगिनि राजश्री भगिनी अग्रिम स्थितवती त्वम् आम् पठतु
भक्तिगीतं गायसि त्वं देशभक्तिगीतं गीतवती त्वां सर्वदा सत्यं वदतः त्वां सर्वदा सत्यम् उक्तवन्तौ यूयं भजत्वे यूयं भक्तवन्तः अहं भुञ्जे अहं भक्तवान् केन् यु जस्ट् स्क्रोल् अप् अहं भुक्तवान् अहं भुञ्जे अहं भुक्तवान्
अहं भुक्तवान् आं भुक्तवान् एव भुञ्जे इत्युक्ते भुक्तवान् आं भोजनं कृतवान् तथा विधार्थे धन्यवादः भगिनि एतत् सर्वं तवतु पत्य उदाहरणानि एव एतत् सर्वं परिशीलनं करणीयम् किञ्चित् पठामः पुनःस्मरणार्थं किञ्चित् पठामः एव तवतु पत्यं रामेश्वरी भगिनी तवतु अत्र यतोदाहरणम् आरभ्य पठतु
यथोदाहरणं रिक्तस्थानानि पूरयत तवतु प्रत्ययान्तं रूपं पुल्लिङ्गे पठति पठितवान् पठितवन्तौ पठितवन्तः इच्छति इष्टवान् इष्टवन्तौ इष्टवन्तः करोति कृतवान् कृतवन्तौ कृतवन्तः गायति गीतवान् गीतवन्तौ गीतवन्तः
धन्यवादः
धन्यवादः
उषा भगिनी अग्रिमवाक्
आं भगिनि धरति धृतवान् धृतवन्तौ धृतवन्तः भजति भक्तवान् भक्तवन्तौ भक्तवन्तः क्रीडति क्रीडितवान् क्रीडितवन्तौ क्रीडितवन्तः नयति नीतवान् नीतवन्तौ नीतवन्तः
धन्यवादः भगिनि
धन्यवादः
सरस्वती भगिनी अग्रिम
आं भवति विवरणं क्रीडति नयति नयति नीतवान् नीतवन्तौ नीतवन्तः गर्जति गर्जितवान् गर्जितवन्तौ गर्जितवन्तः भ्रमति भ्रमितवान् भ्रमितवन्तौ भ्रमितवन्तः शृणोति श्रोतवान् रैट् श्रुतवान् श्रुतवन्तौ श्रुतवन्तः तपति तप्तवान् तप्तवती तप्तवन्तौ तप्तवन्तः
धन्यवादः भगिनि उत्तमकार्यं वैभव भगिनि अग्रिम कुत्र तप्तवान्
बोधयति बोधयति बोधयत्वान् बोधयत्वन्तौ बोधितवन्तः लिखति
बोधयति एकनिमिषं भगिनि बोधयति बोधितवान्
बोधितवान् बोधितवन्तौ बोधितवन्तः लिखति लिखितवान् लिखितवन्तौ लिखितवन्तः हसति हसितवान् हसितवन्तौ हसितवन्तः नमति नतवान् नतवन्तौ नतवन्तः ददाति दत्तवान् दत्तवन्तौ दत्तवन्तः पृच्छति पृष्टवान् पृष्टवन्तौ पृष्टवन्तः
धन्यवादः भगिनि
धन्यवादः
जया भगिनी अग्रिम समापयतु अत्र ब्रूते
नमस्कारः भगिनि सरला भगिनि ब्रूते ब्रूतवान् उक्तवान् उक्तवन्तौ उक्तवन्तः इक्षते इक्षते
दृष्टवान् वक्तुं शक्यते
ईक्षितवान् अदृष्टवान्
दृष्टवान्
दृष्टवन्तः परीक्षितवन्तः
तदपि सम्यक् भगिनि द्वावपि सम्यक्
लभते लब्धवान् लब्धवन्तौ लब्धवन्तः आस्ते आसितवान् आसितवन्तौ आसितवन्तः युध्यते युद्धवान् युद्धवन्तौ युद्धवन्तः
युध्यते युद्धवान्
युध्यते
धन्यवादः भगिनि
धन्यवादः धन्यवादः
अनिता भगिनी एतत् आरम्भं करोतु श्रीलिङ्गे अपि पश्यामः पुनस्मरणं भविष्यति कारणं पञ्चवाक्यानि
आं भगिनि पिबति पीतवती पीतवत्यौ पीतवत्यः करोति कृतवती कृतवत्यौ कृतवत्यः वदति उदितवती उदितवत्यौ उदितवत्यः पश्यति दृष्टवती दृष्टवत्यौ दृष्टवत्यः गच्छति गतवती गतवत्यौ गतवत्यः
धन्यवादः भगिनि एतत् नदी इव ओके नदी इव अस्ति एतत् ईकारान्त दीर्घ ईकार
क्षम्यतां भगिनी एकः प्रश्नः अस्ति अत्र वदति उक्तवान् अपि सम्यक् खलु उक्तवान् सोरि
उक्तवती अति सम्यक्
उदितवती एव अपि च उक्तवती बोत् रैट्
द्वौ अपि सम्यक्
अस्तु धन्यवादः
अपर्णा भगिनी पञ्चवाक्यानि गच्छति अभवत् खलु
क्षिपति क्षिप्तवती क्षिप्तवत्यौ क्षिप्तवत्यः जपति जपितवती जपितवत्यौ जपितवत्यः नयति नयवती और नीतवती नीतवत्यौ नीतवत्यः तिष्ठति स्थितवती स्थितवत्यौ स्थितवत्यः
धन्यवादः. बालकृष्णमहोदय अग्रिमं कूजति आरभ्य.
कूजितवत्यः. पृच्छति पृष्टवती पृष्टवत्यो पृष्टवत्यः. कथयति कथितवती कथितवत्यो कथितवत्यः. शृणोति श्रुतवती श्रुतवत्यो श्रुतवत्यः. हसति हसितवती हसितवत्यो हसितवत्यः.
धन्यवादः महोदय. हेमाङ्गी भगिनी
चलति. चलति चलितवती चलितवत्यौ चलितवत्यः. क्रीडति क्रीडितवती क्रीडितवत्यौ क्रीडितवत्यः. गायति गीतवती गीतवत्यौ गीतवत्यः. तपति तप्तवती तप्तवतौ तप्तवत्यौ तप्तवत्यः. शय शेते शयितवती
शयनं करोति. शयितवती शयितवती
शयितवती शयितवत्यौ शयितवत्यः.
धन्यवादः.
धन्यवादः.
जया भगिनी अग्रिमं समापयतु प्रायः अभवत्. जानीते
जानीते खलु. ओके. ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः. यतते
यतति
यतति यतति यतवत्यौ यतवत्यः. यत्तवत्यः यतितवती यतितवत्यौ यत्तवत्यः. यत्तवती रैट् यत्तवती यत्तवती यत्तवत्यौ यत्तवत्यः. लभते लब्धवती लब्धवत्यौ लब्धवत्यः.
ऐ थिङ्क् अभवत्. धन्यवादः महेश.
धन्यवादः.
यतति मया दृष्टव्यं यतति.
भगिनी ऐ हेव् वन् क्वश्चन् हियर् अगेन्. केन् यु जस्ट् स्क्रोल् अप् लिटिल्. Yeah, the vadati, vadati is not ubhaypadi kriyapadam, right? It is parasmaypadi only, right?
Vadati parasmaypada. Bhashate asti. Bhashate is a similar, I mean, same meaning. Bhashate vadati. Kim, prashna ka?
So here, vadati, earlier we have seen uktavati and all, but here why is it then? Why this difference is there? Uditavati.
Both you can say, because at dhatu there are two different dhatus that we can see later. Bhagin idanim both dvau api samyak iti sthapayatu manasi. Idanim there are okay. two dhatus there, so that's why it's,
okay,
different. For now you can take like that, but we'll discuss it later. Okay,
idanim. Okay, dhanyawad.
एतत् सर्वं तदेव एतत् सर्वं पूरयतु. गयति मन्ये गम् दातु श्रुदातु इति सर्वम् अस्ति. सो तदैव प्रायः किमपि लङ्लकार आगच्छति. परन्तु एकम् एकं कथां पश्यामः, किञ्चित् भिन्न कार्यं कुर्मः.
नमस्कार. कथां पठामः वा? कः पठति? वैभवी भगिनी प्रथमपरिच्छेदं पठतु.
आं महोदय.
मन्दं मन्दं पठतु.
आं महोदय. व्यर्थः मूर्खोपदेशः. कश्चन तमाल् वृक्षः आसीत्. तस्य वृक्षस्य शाखायाम् एकः नीडः आसीत्. तत्र कश्चन चटकः पत्न्या सह वसति स्म. कदाचित् वर्षाकालः आगतः. बहिः सर्वत्र शीतलं वातावरणम् आसीत्. नीडे तु औष्ण्यम् आसीत्. अतः चटकः नीरातङ्क आसीत्.
भगिनी, सो कश्चन, ओके, यू हैव टू से लाइक दैट, कश्चन, नॉट कश्चन, हलन्त चिन्ह नास्ति खलु तत्र, कश्चन
कश्चन.
एंड आल्सो लेटर्स इन बिटवीन, नो, यू कैन नॉट वस्ति स्म but vasati sma. I mean, you haven't said that, but I'm just saying in between also. You have to just stress the
syllable. Amat.
Kachana tamala vrikshaha asit. Tipte kem tamala vrikshaha, like a people tree, banyan tree, something like that. Tamala vrikshaha asit. Agrima vakyam vadatu kinchit. Shakayam.
तस्य वृक्षस्य शाखायाम् एकः नीर आसीत्. तस्य षष्टिविभक्ति, वृक्षस्य षष्टिविभक्ति, शाखायां सप्तमी विभक्ति, एकः नीर आसीत्. आसीत् इस् लङ्गलकार. नीड, ऐ डोण्ट् नो,
नीड लैक् अ नेस्ट् आर् समथिङ्ग् लैक् वृक्षस्य आन् द ब्रांच् देयर वास् अ नेस्ट् नीडः.
तत्र कश्चन चटकः, कश्चन चटकः पत्न्या सह वसति स्म. सम बर्ड इज यूज्ड टु लिव देयर विथ हिज वाइफ. स्म इज भूतकाल
चटकः इत्युक्ते लैक् अ स्पैरो, चटकः पत्न्या सह. पत्न्या का का विभक्ति भगिनि, जानाति वा? पत्न्या सह,
पत्न्या
सह एण्ड् विना, वी हैव सीन् रैट्, तृतीया विभक्त्यां,
तृतीया विभक्ति, तृतीया विभक्ति
पत्न्या सह वसति स्म. वर्षाकालः आगतः. ओके, सरलमेव. नीडे वदतु. नीडे तु औष्ण्यम्, औष्ण्यम् इत्युक्ते वार्म्, औष्ण्यम् आसीत्. नीडे किम् अस्ति?
सप्तमी विभक्ति,
एकवचनम्. औष्ण्यम् आसीत्, अतः चटकः निरातङ्कः आसीत्. निरातङ्कः इत्युक्ते विथौट् वरि और् विथौट्.
आं महोदय.
without any worry or problem. Avagatam?
Avagatam, Mahoday. Dhanyavada.
Dhanyavada, Bhagini. Sahitya Bhagini, Agrima Parichedam Patatu.
Tada Kashchana Vanaraha Tatra Agatavan. Vrishtaya Tasya Shariram Klinnam Asit. Shaityena saha kampate sma saha vanaraha dantaveenam vadayan vriksham aruhya upavishtavan.
Kinchit parishilayamaha. Tada kaschana vanaraha tatra agatavan. Agatavan kim asti?
Past.
Bhutakale asti agatavan. Vrishtya. Vrishtya it is. Vrishtya tasya shariram klinnam asit. Vrishtya ityukte kavibhakti. Vrishtya. Vrishtihi, so it will be Tritiya. Vrishtya.
Tritiya Vibhakti. Okay.
Tasya Shariram Klinnam. Klinnam ityukte like soaked or wet Klinnam. In the rain. Vrishtya Tasya Shariram Klinnam Asit. Shaityena Janatiwa. Shaityena. Shaityam ityukte cold. Shaityena. Saha kampate sma.
Shivering.
Shaityena tritiya vibhakti. Saha kampate sma. Saha vanaraha dantaveenam vadayan vriksham aruhya upavishtavan. So saha dantaveenam ityukte like chattering of teeth. Dantaveenam.
Okay. Yeah.
Vadayan. So his shivering and his teeth are chattering. Rikshamaruhuya upavishtavan. So he was kimasti vadatu. Rikshamaruhuya upavishtavan.
Climb on the tree. Upavishtavan is again past tense.
Upavishtavan, he sat. Aruhya is lebantapadam. Like after climbing. Avagatam?
Yeah, avagatam.
Dhanyavada bhagi.
Dhanyavada.
Anita bhagini, agrima parichedam patatu bhagini.
tam drushtva chataka uktavati. Kim bhoho bhavataha hastapada sahitam srududam shariram asti. Tathapi ekam gruham nirmaya tatra vasam kartum bhavan kim nashaknoti. Kimartham evam shita pidam anubhavati bhavan iti. Tam drishtva, tvanta pratya drishtva, after seeing the monkey, like seeing the monkey, Chataka Uktavati, that like Chatakasya Patni Chataka, she says, Uktavati she tells, or like she said, past tense, Kim Boho Bhavataha Astapada Sahitam Srududam Shariram Asti. Means like you like seem to be healthy, you like seem to be healthy. And in spite of that, tathapi ekam gruham nirmaya. And in spite of that, why don't you construct a house for yourself and you can be there? Vasam kartum. Kartum is like tumun pratyaya, is it here? Kartum. Bhavan भवान् किं न शक्नोति वै आर् नाट् एबल् टु कन्स्ट्रक्ट् हौस् फार् युर् सेल्फ् एण्ड् किमर्थम् एवं शीतपीडाम् अनुभवति भवान् लैक् वै आर् यु सफरिङ्ग् फ्रम् आल् दीस् थिङ्ग्स् वेर् यु कुड् युर् सेल्फ् कन्स्ट्रक्ट् अ हौस् सम्थिङ्ग् लैक् देट् इस् अ मीनिङ्ग्
धन्यवादः भगिनि. शीतपीडाम् इत्युक्ते वै आर् यु सफरिङ्ग् फ्रम् द कोल्ड् कोल्ड्
अनुभवति भवान्
सम्यक् धन्यवादः भगिनि
धन्यवादः.
अग्रे अपर्णा भगिनी पठतु.
आम् महोदय. तत् श्रुत्वा वानरः उक्तवान् रे अधमे किमर्थं मौनेन न तिष्ठति भवती मम विषये भवती किमर्थं चिन्तयति इति. शुड् ऐ कण्टिन्यू?
किञ्चित् वदतु भगिनि. किमपि अस्ति वा तत्
तत् श्रुत्वा वानरः उक्तवान् सो आन् लिस्निङ्ग् टु द चाटका द मङ्की इस् सेयिङ्ग् उक्तवान् इस् पास्ट् इस् भूतकालं भवतु आफ्टर् लिस्निङ्ग् टु द चाटका चटका सो हियर् टु सम्बोधनं रे अधमे ऐ थिङ्क् अधमः इस् द पद् I'm not sure what adhamah.
It is like low, like a...
Inferior.
It is like a bad word, like a curse.
Okay. Low we know what adham is. So adham is probably is using for strilingam. Re adhame.
Sambodhanam.
Kimartham maunena na tishtati bhavati. So maunena would be trutiya. किमर्थं न तिष्ठति भवती सो इस् आस्किङ्ग् वै आर् यु नाट् सिटिङ्ग् क्वैट्लि मम विषये भवती किमर्थं चिन्तयति सो मम विषये इस् अबौट् मी विषये वुड् बि तृतीया अगेन्
विषये चिन्तयति
मम विषये सो विषये वुड् बि इदर् षष्ठी और् सप्तमी
सप्तमी
सो ओके हा मम विषये वुड् बि सप्तमी मम विषये ये ओके मम विषये भवती किमर्थं चिन्तयति सो इस् आस्किङ्ग् वै आर् यु थिङ्किङ्ग् अबौट् मी
सम्यक् धन्यवादः धन्यवादः भगिनि
धन्यवादः महोदय.
सुबोध महोदय अग्रे पठतु.
परन्तु चटका मौनेन न स्थितवती पुनः तथैव उपदेशम् आरब्धवती तदा वानरस्य महान् कोपः आगतः सः तां शाखाम् आरुह्य चटकायाः नीडं शतधा खण्डशः कृतवान् एवं मूर्खम् उद्दिश्य उपदेशेन चटकायाः नीडः एव नष्टः अभवत्.
किञ्चित् प्रथमवाक्यं वदति स्थितवती मौनेन स्थितवती किं
मौनेन विल् बि तृतीय and then sthitavati will be bhutakalah punah tathaiva again same she started the same upadesha or the advice to she started saying the same advice to the vanara
arabdavati kim
Arabdhavati means begin. She started saying again in Bhutakalah.
Lingam.
तदा
लिङ्गं किं महोदय अत्र आरब्धवती
शी स्टार्टेड् अट् दट् पायिण्ट् आरब्ध
स्त्रीलिङ्गे खलु
स्त्रीलिङ्गे
पुल्लिङ्गे किं भवति
आरब्धवान्
सम्यक् धन्यवादः अग्रे वदतु
तदा वानरस्य उद्भि षष्ठी विभक्ति महान् कोपः आगतः आगतः लैक् इट्स् भूतकालः कोपः सः विल् बि प्रथमा विभक्ति एकवचन तां
चटकायाः वदतु
चटकायाः विल् बि षष्ठी विभक्ति
सम्यक्
नीडं
शतधा खण्डशः कृतवान् जानाति खलु
शतदा इति अर्थं न जानामि
लैक् हण्ड्रेड् शतं शतदा खण्डशः हण्ड्रेड् पीसस् लैक्
खण्डशः ओके खण्डतुण्डः
चूर् चूर् कर्दिय शतदा खण्डशः कृतवान्
कृतवान् कृतवान् इस् अगेन् भूतकालः एवं मूर्खम् उद्दिश्य उपदेशेन चटकायाः उपदेशेन वेगेन तृतीया विभक्ति चटकायाः षष्टिविभक्ति नीडः एव नष्टः अभवत् अगेन् भूतकालः
भूतकालः अत्र लङ्लकारे अस्ति ओके अवगतम्
अवगतं महोदय
सरलमेव अस्ति just to get a feel for all the bhutakala rupani okay dhanyawad mahodaya okay idanim kinchit langlakarasya rupani api pashyamaha हेमाङ्गी भगिनी प्रथमवाक्यं पठतु द्वौ अपि
आम् महोदय वर्तमानकालः लट् सुरेशः भक्तियोगं पठति भूतकालः लङ्लकारः सुरेशः भक्तियोगम् अपठत्
भूतकाले किम् अस्ति लङ्लकार न
पठितवान्
सम्यक् अग्रिममपि करोतु
अस्तु श्यामः गीता प्रदर्शनीं पश्यति श्यामः गीता प्रदर्शनीम् अपश्यत्
दृष्टवान् सम्यक् भगिनि धन्यवादः जया भगिनी अग्रिमद्वयं करोतु
आम् महोदय नमस्कारः ताः मथुरां गच्छन्ति ताः मथुराम् अगच्छन्
तवतु रूपेण वदतु
ताः मथुरां गतवन्तः
गतवत्यः
लिङ्गं किं तत्र
सातेताः क्षम्यताम् ताः मधुरां अगच्छन् मधुरां
लङ्लकारे लिङ्गभेदः नास्ति
नास्ति
ओके पुल्लिङ्गे स्त्रीलिङ्गे अपि च समानमेव
क्षत्रियः युद्धं लभते क्षत्रियः युद्धं लब्धवान् लब्धवान्
लङ्लकारे
लङ्लकारे क्षत्रियः युद्धम् अलभत् अलभत् अग्रिमे
धन्यवादः भगिनि सो हियर् लभते जानाति खलु लभते सो आत्मनेपदी विल् बि डिफ्रेण्ट् फ्रम् परस्मैपदी ओके सो अगच्छन् अलभत भविष्यति विल् सी लेटर् ओके
Okay,
so the Parasmaipadi and the Atmanepadi will be slightly different in the Langlakar, as we have seen in Lot and Lut and all that.
Okay, Astu Mahadaya.
Dhanyavada Bhagini.
Dhanyavada.
Rajshri Bhagini Patatu, Agrima Dvayam.
Namaskara Mahadaya.
Namaste Bhagini.
Karmanaha Phalam Njate. सर्वे कर्मणः फलम् अभुञ्जत्
अभुञ्जत्
अभुञ्जत् अभुञ्जत् सो इक्तवतु विल् बि सर्वे भुञ्जितवन्तः सर्वे कर्मणः फलं भुञ्जित
भुक्त I think it will be Bhuktavan ityuk Bhuktavantah bhavishyati Bhuktavan kalu Bhuktavantah
एकः प्रश्नः महोदय अत्र क्रियापदम् एकवचने अस्ति वा सर्वे कर्मणः फलं भुज्यते
न सर्वे बहुवचने सर्वः सर्वौ सर्वे खलु
अत्र क्रियापदं क्रियापदं क्रियापदम् एकवचने अस्ति वा
भुञ्जते अपि बहुवचने अस्ति भगिनि भुङ्क्ते खलु भुङ्क्ते भुञ्जाते भुञ्जते
धन्यवादः
भुङ्क्ते भुञ्जाते भुञ्जते किञ्चित् भेदः अस्ति तत्र
धन्यवादः
सो भुञ्जते मीन्स् वाट् इस् द मीनिङ्ग् आफ् भुञ्जते
भुञ्जते मीन्स् ईट् इट्स् आक्चुलि लैक् ईटिङ्ग् कन्स्यूमिङ्ग् आर् इन् दिस् काण्टेक्स्ट् फलं भुञ्जते मीन्स् प्राप्नोति लैक् लैट् You enjoy the fruits of your labor is what it probably means.
Okay.
Mahodaya, ekavaram punah vadatu, bunjate forms.
Bhungte is pratama purushah ekavachane, bhungte, bhunjate, bhunjate.
Bhungte, bhunjate.
So who was doing it the next one also
I was doing Mahodaya Rajeshri
agrimam karotu bhagini
aham krishnam bhaje
अहं कृष्णम् अभजे. कृष्णं so when it is iktavatu should we still say bhajitavan bhajitavati?
I think it will be let me ek nimisham. It could be bhakta bhaktavan asti. I think it will be bhaktavan bhagini.
अहं कृष्णं भक्तवान्
I will check and confirm, but I think it is bhaktav.
भजे इस आत्मनेपदि रूपम्
आम् आम् अहम् सो भजे विल् बि इन् उत्तम पुरुषे एकवचनं इट्विल् मेच् वित् अहम् धन्यवादः भगिनि रामेश्वरी भगिनी अग्रिमद्वयं करोतु
अर्जुनः प्रज्ञावादान् भाषते अर्जुनः प्रज्ञावादान् अभाषत्
अभाषत
सात्विकाः देवान् यजन्ते सात्विकाः देवान् अयजन्त
अभाषत दैट सेंटेंस कैन यू से इन तवतु अर्जुनः
अर्जुनः प्रज्ञावान् उक्तवान् सॉरी अर्जुनः प्रज्ञावादान् उक्तवान् उदितवान्
सम्यक् अत्र पठतु भगिनी चल धातु
अचलत् अचलताम् अचलन् अचलः अचलतम् अचलत अचलम् अचलाव अचलाम
इदानीं लट् लकारे वदतु चल् धातु जानाति खलु
वर्तमानकालः
चलति
चलति चलतः चलन्ति चलसि चलथः चलथ चलामि चलावः चलामः
उत्तमं भगिनि अति उत्तमं धन्यवादः
महोदय ऐ हाव् वन् क्वेश्चन्
वदतु भगिनि
सो हियर् भाषते इस् आत्मनेपदि राइट एंड वदति इस् परस्मैपदि बट बोथ हैव तवतु प्रत्यय सेम लाइक भाषते इस् आल्सो
Tavatu is like a noun form, Bhagini. So it is not actually Kriya. Kriyam suchayati, parantu it is not a real Kriya. Okay, it's a noun form. Because when you do Kritavan or Kritavati, it will have the Saptami Vibhaktiyam Asti.
Okay.
Like... Okay. You will have, you know, all the seven vibhaktis you will have for that.
Okay. Astu.
So it's just to get the meaning. So don't be too concerned. But for the lang lakara, it will be specific, as we will see.
Okay. Dhanyavada.
Mahodaya, can we use bhashitavan? Is there something like that?
Kutra bhagini?
That instead of that... Iktavatu pratyaya for bhashate, bhashitavan, is it correct?
Yeah.
Okay.
You can use anything. I mean, it is just to convey the meaning right there.
Okay.
But when we come to the lung form, it has to be specific.
Okay. Dhanyavad.
Saraswati Bhagini, Drishyadhatu Karu.
Apashyat, apashyatam, apashyan. Apashyah, apashyatam, apashyata. Apashyam, apashyava, apashyama. Pashyati, pashyati, pashyatah. Pashyanti, pashyasi, pashyatah, pashyatha, pashyami, pashyavah, pashyamaha.
Samyak.
Dhanyavada.
Lot api vaktum shakyate va?
Pashyatu?
Vadatu.
Pashyatu? Pashyatam manono. Pashyatam. Pashyatam. Pashyantu. Pashya. Pashyatam. Pashyata. Pashyani. Pashyava. Pashyama.
Pashya. Madhyama Purusha vadatu?
Pashyatam.
Pashyata.
Pashyani, Pashyava, Pashyama.
Ati uttamam bhagini. Ati uttamam. Dhanyavada. Okay. Yeah, just if we try everything together, I know initially it may be a little confusing, but we'll make it very clear later. Uttamam. Agre. Subodh Mahodaya Karotu.
Atishthat, Atishthatam, Atishtan, Atishthah, Atishthatam, Atishthata. Atishtam, Atishtava, Atishtama, Atishtati, Atishtataha, Atishtana.
Mahodaya, Atishtat lang lakare asti, lat lakare kim bhavati? Tishtati, Tishtati, Atishtat.
Oh yeah, tishtati, huh? Tishtati,
tishtataha,
tishtanti, tishtasi, tishtataha, tishtata, tishtami, tishtavaha, tishtamaha.
Lot vaktum shakyate va?
Tishtatu, tishtatam, tishtantu, tishtata, tishtatam, tishtata, Tishtani, Tishtava, Tishtama.
Ati uttamam, Mahodaya. Ati uttamam. Dhanyavada. Okay. Samaya jataha. So, you have to, main thing is keep in touch. Otherwise, like I said, all these are very, very similar and a little confusing. But once you get familiar, it will become easier. So, kinchit graha grihe punaha pashyattu. Okay. Samaya samapayamaha. Usha bhagini ke prarthanam vadatu.
Amahar. Om sarve bhavantu sukhinah, sarve santu niramayah, sarve bhadrani pashyantu, ma kaschid dukkha bhag bhavet, ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय
धन्यवादः